सहस्रजेयथा पुरुषः सहस्राक्षस्सहस्रपाद् स भूमिम् विश्वतो भूत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदकम् सर्वम् यद्भोदयश्च भव्यम् भूतामृतत्वस्येशानः यदन्नेनादिलोहति वेदावानस्य महिमा अथोज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतन्निमे त्रिपादोऽर्थमुदये पुरुषः पादोऽस्येहावात्पुनः ततो विश्वम् यत्कामत् साचनामशने अभि तस्मात् विराटजायत विराजो अधिपूरुषः स जातो अत्यरिच्यत तस्याद्भूमिमतो पुरः यत्पुरुषेण हविषा देवायज्ञमदन्वत वसन्तोहस्याधिराज्यम् ग्रीष्मयुग्मशरद्भवे सप्तास्यादन्वनिधयः त्रिसप्तसविधकृताः देवाय गन्वानाः अवध्नन् पुरुषम् वशन् तैयज्ञम् बर्हिः प्रोक्षन् पुरुषम् जातमग्रः तेन देवा अयजन्त साध्यायदयश्च ये तस्माद्यज्ञात् सर्वभूतः संवृतम् मृगराज्यम् अशोकस्तायुसक्रेवायव्यान् आरण्याम् ग्राम्याश्रये तस्माद्यज्ञात् सर्वभूतः त्रिजसामानिजज्ञे छन्दागुंसिजज्ञे तस्मात् यजस्तस्मादजायत तस्मादश्वाजायन्त एकेतो भयादतः गावोहयज्ञे तस्मात् तस्माद्धाराजावयः यत्पुरुषङ्गतो कथिताजकल्पयन् मुखङ्गमस्य को बाहो काहोरोपादामुच्छेद ब्राह्मणोश्च मुखमादेव बाहोरादिन्न कृतः ओरोदरस्य यद्वैष्यः अद्भागम् श्रोत्र अजायत चन्द्रमा मनसो जातः चक्षोशोज अजायत मुखादिन्द्रश्चाभ्यश्च प्राणाद्वायुरजायत माभ्यादेवन्तरिक्षम् शेषाद्यौ समवर्तत पद्माम्भोमिर्दिशश्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णन्तमसस्तुकारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवर्णयदास्ते धाता पुरस्ताद्यमुदादहार चक्रप्रभिद्वान्मुदितश्चतस्रः तमेवम् विद्वानमृतैः भवति मान्यः पञ्चायनाय विद्यते यज्ञेन यज्ञमयदन्तदेवाः तानि धर्माणि प्रथमान्यासन् देहनाथम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अध्यसम्भोधपृथिवेदाश्च विश्वकर्मणः समबद्धराधि तस्य त्वष्टा विदधद्रूपमेते तत्पुरुषस्य विश्वमादानमग्रे वेदाहमेदम् पुरुषम् महान्तम् आदित्यवर्णन्तमसत्परस्तात् तमेवम् विद्वानमृत इह भवति नान्यम् पञ्चा विद्यते जनाय प्रजापतिश्च दिगद्भे हन्तः अजायमानो बहुधा विजायते तस्य धीरा परिदानं दिलोनिम् मदीदीनां मदमिच्छन्ति वेधसः यो देवे प्राणपति यो देवानां पुरोहितः भूर्भो यो देवेभ्यो जातः नमो हृदाय ब्राह्मये ऋजं ब्राह्मं जनयन्तः देवा अग्रे तदप्रवन् यस्यैवं ब्राह्मणा विद्यात् तस्य देवा असंवसे वीक्षते लक्ष्मी सपत्न्यौ अहोरात्रे बाष्पे नक्षत्रानिरूपम् अश्विनौ यात्तम् इष्टम् मणिदान अमुम् मणिदान सर्वम् मणिदान ॐ शान्तिः शान्तिः शान्तिः।